अथ सूर्य अष्टकम् आदिदेवानमस्तुभ्यम् प्रसीदा मम भास्कर दिवाकरानमस्तुभ्यम् प्रभाकरानमस्तुते सप्तस्वरदामरुधम् प्रचन्दम् कश्यपद्मजम् श्वेतपद्माधरम् देवम् तम् सूर्यप्रणामम्यहम् लोहितम् रथमरुधम् महापापहरं देवं तं सूर्यं प्रणामम्यहं त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरं महापापहरं देवं तं सूर्यं प्रणामम्यहं ब्रह्मेथं तेजपूजं च वायुरकृशमेव च प्रभुस्थवं सर्वलोकानां तं सूर्यं प्रणामम्यहम् बन्धुकपुष्पशाङ्काशम् हलाकुन्दलाभूषितम् इकारचक्राधरं देवं तं सूर्यं प्रणामम्यहम् तं सूर्यं जगत्कर्तरम् महातेजं प्रदीपनं महापापहरं देवं तं सूर्यं प्रणामम्यहं तं सूर्यं जगाथं नाथं धराविघ्नमोक्षरम् महापापहरं देवं तं सूर्यं प्रणाम्यहं तं सूर्यं प्रणाम्यहं तं सूर्यं प्रणाम्यहं।